अस्य वीरः को अपश्यदिन्द्रम् सुखरथमीयमानम् हरिभ्याम् यो राजा वज्रे सुतसोममिच्छन्ददो को गन्ता पुरुहूत ऊती अवाजदक्षम् पदमस्य सस्वरुग्रन्निधातुरन्वाजमिच्छन् अपृच्छमञ्जाम् उदतेम आहुरिन्द्रन्नरो बुबुधाना अशेम प्रणुभयम् सुते जाते कृतानीन्द्रब्रवा मजानि नो जुजोषः वेददविद्वाञ्छृणवच्च विद्वान्वहतेजम् मघवा सर्वसेनः स्थिरम् मनश्चकृषे जात इन्द्रवेशीदेको जुधजे भोजसश्चित् अश्मानञ्जिच्छवसा दिद्युतो विविदो गवा भूर्वमुसृजाणाम् परो यत्त्वम् परम आजनिष्ठाः परापतिश्रुत्यन्नाम बिभ्रत अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः तुभ्येदेते मरुतः सुषेवा अर्चन्त्यर्कम् सन्वन्त्यन्धाः अहिमोहानमप आशयानम् प्रमाजाभिर्माजिनम् सक्षदिन्द्राः विशो मृधो जनुषादानमिन्वन्नहङ्गवामघवन् सञ्चकानः अत्रा दासस्य नमुचे शिरो यदवर्तयो मनवे गातुमिच्छन् युजम् हि मामकृथा आदिदिन्द्रशिरो दासस्य नमुचेर्मथाजन् अश्मानञ्चित्स्वर्या अम्बर्तमानम् प्रचक्रिजे भरोदसे मरुद्भ्याः स्त्रिजो हि दास आयुधानि चक्रे किम् माकरन्न बला अस्य सेनाः अन्तर्ह्यख्यदुभे अस्य धेने अथो पप्रेद्युधजे दस्यमिन्द्राः समत्र गाभोभितो नवन्ते हेह वत्सैर्वियुता जदासन्न सन्ता इन्द्रो असृजदस्य शाकैर्यदीम् सोमा सस्सुषुता अमन्दन् यदीम् सोमा बभ्रुधो ता अमन्दन्नरो रवेत् वृषभः सादरेश पुरन्दरः पपिवाङ् इन्द्रो अस्य पुनर्गवा मददा दुःसृजाणाम् भद्रमिदम् वृषमा अग्ने अक्रन्गवाम् चत्वारि ददतः सहस्रा ऋणञ्जयस्य प्रयता मघानि प्रत्यग्रभीष्मनृतमस्य नृणाम् स्वपेश सम्मावसृजन्त्यस्तम् गवाम् सहस्रैरुषमासो अग्ने तीव्रा इन्द्रमम मन्दः सुता सोऽग्नोर्व्योष्टौ परितग्म्याजाः औच्छत्सा रात्रे परितग्म्याजाङ्गृणम् च जे राजनिरुषमानाम् अद्यो न बाजे रघुरज्यमानो बभ्रश्चत्वार्यसनत्सहस्रा चतुःसहस्रम् गव्यस्य पश्वः प्रत्यग्रभीष्मरुषमेष्वग्ने घर्मश्चित्तप्तः प्रव्रजेज आसीदजस्मजस्तम्बादामभिप्राः